इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् 47-2000 परं विकसित भारतं प्रत्येकं जनस्य 2000 महत्वाकांक्षा वर्तते। ह्यः नीत्यायोगस्य नवम प्रशासकीय परिषदः उपवेशनं सम्बोधयन् श्रीमोदी उक्तवान् यत् राज्यं लक्ष्यमिदं प्राप्तौ उत्कृष्ट भूमिकां निभालयितुं शक्नोति। प्रधानमन्त्रिणा उक्तं यत् भारतं एतेषाम् अवसराणां लाभं गृह्णीयात् तथा अन्ताराष्ट्रिय निवेशानुकूलं नीतीनां निर्माणं कुर्यात्। तेनोक्तं यत् भारताय विकसित राष्ट्र निर्माण दिशि अयं प्रगतिमार्गः वर्तते। प्रधानमन्त्री कथितवान् यत् सर्वेषां राज्यानां संयुक्त प्रयासेन 47-2000 परं विकसित भारत इति स्वप्नं पूरयितुं शक्यते। तेनोदीरितं यत् विकसित राज्यानि मिलित्वा विकसित भारतं निर्मास्यन्ति। श्रीमोदी उक्तवान् यत् भारतं यूनां राष्ट्रं वर्तते। स्वकार्यकालस्य कारणेन विश्वस्मिन् बृहदाकर्षणकारं वर्तते। तेन अग्रे कथितं यत् विकसित भारतं निर्मातुं कौशलानुसन्धान नवाचार वृत्त्याधारितेषु विषयेषु बलं प्रदातव्यम्। नीत्यायोगस्य प्रशासकीय परिषदः उपवेशनमिदं राष्ट्रपतिभवनस्य सांस्कृतिक केन्द्रे सञ्जातम्। प्रधानमन्त्री नरेन्द्रमोदी अद्य पूर्वाह्ने 11 स्वीय मन की बात इति कार्यक्रमे देशवासिभि साकं विचार विनिमयं करिष्यति। मन की बात इति मासिक कार्यक्रमस्य इदं 12-शतं संस्करणं भविता। अस्य कार्यक्रमस्य प्रसारणं आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः प्रसारिष्यते। अयं कार्यक्रमः आकाशवाणी दूरदर्शनं प्रधानमन्त्री कार्यालयः सूचना प्रसारण मन्त्रालयः इत्येतेषां यूट्यूब वाहिनीष्वपि द्रष्टुं शक्यते। प्रधानमन्त्रिणः सम्बोधनानन्तरं अनुक्षणमेव अयं कार्यक्रमः क्षेत्रीयभाषास्वपि श्रोतुं शक्यते। क्षेत्रीयभाषासु अस्य पुनः प्रसारणं रात्रौ 8 भविता। विदेशमन्त्री डॉ एस जयशंकरः उक्तवान् यत् केवलं अन्ताराष्ट्रिय सहकार्यं वैश्विक सामान्यस्य सुरक्षां वैश्विक वस्तूनां वितरणं च सुनिश्चितं कर्तुं शक्नोति। ह्यः लाओस जनतांत्रिक गणराज्यस्य वियनतियाने नगरे 31 आसियान क्षेत्रीय मञ्चे भागं गृहीत्वा डॉ जयशंकरः अवदत् यत् समाधानं केवलं आर्थिक राजनीतिक प्रौद्योगिकी सम्पर्कमाध्यमेन एव उद्भवितुं शक्नोति। मध्यगजाक्षेत्रे इज़राइल देशस्य आक्रमणस्य अनन्तरं न्यूनातिन्यूनं 30 यावत् फिलिस्तीनी नागरिकाः मृत्युमुपगताः, शततोप्यधिकाः च व्रणिताः, यस्मिन् विद्यालये आहताः विस्थापिताः च फिलिस्तीनी नागरिकाः आश्रिताः आसन्। इज़राइल सैन्येन उक्तं यत् आक्रमणस्य लक्ष्यं हमास नियन्त्रितम् विद्यालय परिसरस्य अन्तः स्थितं नियन्त्रण केन्द्रम् आसीत्, यस्य प्रयोगः इज़राइली सैनिकानाम् उपरि आक्रमणं कर्तुं शस्त्राणां संग्रहणार्थं च क्रियते स्म। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः अद्य मध्याह्ने 12:30 भविष्यति। कृपया शृण्वन्तु। त्रयाणां स्पर्धानां श्रृंखलायाः 20-प्रतिविंशति अन्ताराष्ट्रिय पुरुष क्रिकेट प्रतिस्पर्धायां गतसायं पल्लकेले क्रीडांगणे भारतदलेन श्रीलंका दलं 43 धावनांकैः पराजितम् इति वार्ताः।